श्रीपरमात्मने नमः। अथ षष्ठोऽध्यायः। श्रीभगवानुवाच, अनाश्रितः कर्मफलम् कार्यम् कर्म करोति यः, स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः। यम् सन्न्यासमिति प्राहुर्योगम् तम् विद्धि पाण्डव, नह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन। आरुक्षोन्मूलयोगम् कर्म कारणमुच्यते, योगारूढस्य तस्यैव शमः कारणमुच्यते। यदा हीनेन्द्रियार्थेषु न कर्मस्वनुसज्जते, सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते। उद्धरेदात्मनात्मानम् नात्मानमवसादयेत्। आत्मैव ह्यात्मनो बन्धुरात्मैव
बन्धुरात्मनः
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः। अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्। जितात्मनः प्रशान्तस्य परमात्मा समाहितः। शीतोष्णसुखदुःखेषु तथा मानापमानयोः ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः। युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः, सुरिन्मित्रार्युदासीन मध्यस्थद्वेष्यबन्धुषु, साधुष्वपितपापेषु समबुद्धिर्विशिष्यते। योगी युञ्जीत सततमात्मानम् रहसि स्थितः, एकाकीयत चित्तात्मा निराशीरपरिग्रह। शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः, नात्युच्छ्रितम् नादिनीचम् चैलाजिलकुशोत्तरम्। तत्रैकाग्रम् मनः कृत्वा यतचित्तेन्द्रियक्रियः, उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये। समम् कायशिरोग्रीवम् धारयन्न चलम् स्थिरः, सम्प्रेक्ष्य नासिकाग्रम् स्वम् दिशश्चानवलोकयन्। प्रशान्तात्मा विगतभिर्ब्रह्मचारिव्रते स्थितः, मनः संयम्य मच्चित्तो युक्त आसीत मत्परः। युञ्जन्नेवम् सदात्मानम् योगी नियतमानसः, शान्तिम् निर्वाण परमाम् मत्संस्थामधिगच्छति। नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः, न चाचिस्वप्नशीलस्य जागृतो नैव चार्जुनः। युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगो भवति दुःखः। यदा विनियतम् चित्तमात्मन्येवावतिष्ठते, निष्प्रियः सर्वकामेभ्यो युक्त इत्युच्यते तदा। यथा दीपो निवातस्थो नेङ्गते सोपमास्मिता, योगिनो यत चित्तस्य युञ्जतो योगमात्मनः। यत्रोपरमते चित्तम् निरुद्धम् योगसेवय, यत्र चैवात्मानमात्मानम् पश्यन्नात्मनि तुष्यति।
सुखमात्यन्तिकम् यत्तद्बुद्धिग्राह्यमतीन्द्रिय वेत्ति यत्र न चैवायम् इति तश्चलति तत्त्वतः। यम् लब्ध्वा चापरम् लाभम् मन्यते नाधिकम् ततः, यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यत।
इदम् विद्या दुःखसंयोग वियोगम् योगसंहितम्, स निश्चयेन योक्तव्यो योगो निर्विण्ण चेतसा। सङ्कल्प प्रभवान् कामान् त्यक्त्वा सर्वानशेषतः, मनसैवेन्द्रियग्रामम् विनियम्य समन्ततः। शनैशनैरुपरमेत् बुद्ध्या धृतिगृहीतया, आत्मसंस्थम् मनः कृत्वा न किञ्चिदपि चिन्तयेत्। यतो यतो निश्चरति मनःसञ्चलमस्थिरम्, ततस्ततो नियम्येतदात्मन्येव वशम् नयेत्। प्रशान्तमनसम् येनम् योगिनम् सुखमुत्तमम्, उपैति शान्तरजसम् ब्रह्मभूतमकल्मषम्। युञ्जन्नेवम् सदात्मानम् योगी विगतकल्मषः, सुखेन ब्रह्म संस्पर्शमत्यन्तम् सुखमश्नुते। सर्वभूतस्थमात्मानम् सर्वभूतानि चात्मनि, ईक्षते योगयुक्तात्मा सर्वत्र समदर्शन। यो माम् पश्यति सर्वत्र सर्वम् च मयि पश्यति, तस्याहम् न प्रणश्यामि स च मे न प्रणश्यति।
सर्वभूतस्थितम् यो माम् भजत्येकत्वमास्थितः,
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते। आत्मोपम्येन सर्वत्र समम् पश्यति योऽर्जुन, सुखमायति वा दुःखम् स योगी परमो मतः। अर्जुन उवाच, योऽयम् योगस्त्वया प्रोक्तः साम्येन मधुसूदन, एतस्याहम् न पश्यामि चञ्चलत्वात् स्थितिम् कराम्। चञ्चलम् हि मनः कृष्ण प्रमाभिबलवदृढम्, तस्याहम् विग्रहम् मन्ये वायोरिव सुदुष्करम्। श्रीभगवानुवाच, असंशयम् महाबाहो मनो दुर्निग्रहम् चलम् अभ्यासेन तु कौन्तेय वैराग्येन च क्रियते असंयतात्मना योगो दुष्प्राप इति मे मतिः वश्यात्मना तु यतता शक्यो वाप्तुमुपायत अर्जुन उवाच अयतिः श्रद्धयोपेतो योगाच्चलितमानसः अप्राप्य योग संसिद्धिम् काङ्गतिम् कृष्ण गच्छति कच्छिन्नो भय विभ्रष्टश्चिन्नाभ्रमिव नश्यति अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणपति एतन्मे संशयम् कृष्ण छेत्तुमर्हस्य शेषतः त्वदन्यः संशयस्यास्य चेत्तान्नयुपपद्यते श्रीभगवानुवाच पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते न हि कल्याणकृत् कश्चित् दुर्गतिम् तात गच्छति प्राप्य पुण्यकृताम् लोकानुषित्वा शाश्वती समाः शुचीनाम् श्रीमताङ्गेः योगभ्रष्टोऽभिजायते अथवा योगिनामेव कुले भवति धीमताम् एतद्धि दुर्लभतरम् लोके जन्म यदि द्विषम् धातृतम् बुद्धिसंयोगम् लभते पौर्वदेहिकम् यदतेज ततो भूय संसिद्धौ कुरु नन्दन पूर्वाभ्यासेन तेनैव रियते यवशोऽपि स जिज्ञासुरपि योगस्य शब्दब्रह्मादि वर्तते प्रयत्नाद्यतमानस्तु योगी संशुद्ध किल्विष अनेकजन्म संसिद्धस्ततो याति पराङ्गतिम् तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन योगिनामपि सर्वेषाम् मद्गतेनान्तरात्मना
श्रद्धावान् भजते यो माम् स मे युक्ततमो मतः
स मे युक्ततमो मतः ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः।